अस्तु, अस्माकं विषयः अस्ति शब्दजशब्दः, सजातीयगुणजनकत्वं साधितम् अस्ति वा अनेन इति प्रश्नः. तदनन्तरं ज्ञानविषये काचित् चर्चा. अस्तु, एतावता शब्दः कथम् उत्पाद्यते, शब्देन शब्दः कथम् उत्पाद्यते इति अस्माभिः दृष्टम्. शब्दस्य शब्दजनकता कार्यकारणभावस्य एकविध उपदर्शनं इति अपि दृष्टं. परन्तु इयं जनकता गुणत्वेन गुणत्वम् इति अधिकवृत्तिधर्मेण न प्रतिपादयितुं शक्नुमः. विशिष्टकारणात् कार्यं जायते इति तु वयम् अधिकं पठितवन्तः अस्मिन् विषये. वयं गुणजनकता इत्युक्ते तत्र जनकता इति मूलविषयः. गुणत्वम् अस्ति इति कृत्वा जनकता भवति वा न भवति? अतः अत्र प्रतिपक्षिणः वादं, सिद्धान्तिनः वादं सर्वं दृष्ट्वा तौ किम् उक्तवन्तौ इति वयम् अद्य पश्येम. शुकमन महोदय पठति वा?
कुतः आरभ्य भगिनि?
अतः इति आरभ्य, पृष्ठसङ्ख्या अस्ति 22nd शतम् उक्तम्.
अतः न गुणत्वेन साजात्यं प्रदर्श्य कार्यकारणभावः वाच्यः, किन्तु तदपेक्षया न्यूनवृत्तिधर्मान् आदाय एव इति कथं शब्दस्य शब्दजनकता? तावत्पर्यन्तं प्रथमम् अहं वदामि. क्षम्यता भगिनि, कोऽपि आगतवन्तः?
कृपया. अस्तु अस्तु अस्तु, राजेन्द्रमहोदय क्षम्यतां, सः अन्य कुत्रापि गच्छति, अतः भवान् पुनः पठित्वा प्रतिपादयतु कृपया.
आम् अत्रैव अस्मि भगिनि.
आम् आम्, न शुकवनं महोदय अन्य कुत्रापि गच्छति, अतः भवान् प्रतिपादयतु कृपया, राजेन्द्रमहोदय.
प्रयत्नं करोमि. अतः न गुणत्वेन साजात्यं प्रदर्श्य कार्यकारणभावः वाच्यः, किन्तु तदपेक्षया न्यूनवृत्तिधर्मान् आदाय एव इति कथं शब्दस्य शब्दजनकता इति चेत् परामर्श अनुमति जनकत्वम् अत्रैव स्थापयामि.
प्रथमभागं प्रतिपादयतु.
अत्र अस्ति न वाच्यः, न वाच्यः गुणत्वेन साधात्यं प्रदर्शि कार्यकारणभावः प्रदर्शनीयं तथा न वाच्यः, यद्यपि यथा तत्र गुणत्वेन यथा कार्यकारणभावः प्रदर्शयामः तत्र तु अधिकवृत्तिः अस्ति गुणत्वेन, कारणात् तत्र तत् न कर्तुं शक्नुमः, कार्यकारणभावः तथा न कुर्मः. तदपेक्षया न्यूनवृत्तिधर्म आदायति कार्यकारणभावः वाच्यः, तदपेक्षया गुणत्वेन जातिं प्रदर्शन कार्यकारणभावः न प्रदर्शयामः, परन्तु न्यूनवृत्तिधर्मान् न्यूनवृत्तिधर्मान् यत् धर्मः न्यूनवृत्तित्वं यत् तम् आदाय.
राजेन्द्रमहोदय एकनिमिषं, बाधकम् अस्ति ध्वन्याः ध्वनिः बाधते, किञ्चित् दूरे स्थापयित्वा ध्वनिवर्धनं. इदानीं वदतु महोदय.
किन्तु गुणत्रयं तदपेक्षया न्यूनवृत्तिधर्म धर्म धर्म आदाय आदाय एव कार्यकारणभावः वाच्यः यथा यथापि तत्र अतिव्याप्ति दोषः न आगच्छति यथा न्यूनवृत्तिधर्मान् आदाय तत् वदामः कार्यकारणं प्रदर्शयामः गुणत्वेन यदा वदामः तदा तु अधिकवृत्तिधर्मः अस्ति यथा तथा न तत्र अतिव्याप्तिदोषः आगच्छति तत्तु तत् कारणं तत् आदाय यथा वदामः गुणत्वेन आदाय यथा वदामः तत् तु रूपादौ रूपे अपि गुणत्वम् अस्ति रूपे गुणत्वम् अस्ति तत् कारणात् तत्र तत् सङ्ख्या अपि कार्यकारणभावः वक्तुं शक्नुमः या सम्यक् सम्यक् न अस्ति तत् कारणात् तदपेक्षया न्यूनवृत्तिधर्मान् आदाय
एकनिमिषं पुनः वदतु महोदय रूपे गुणत्वम् अस्ति इति कृत्वा किमर्थं गुणत्वं न स्वीकर्तुं शक्नुमः
एकत्वं द्वयत्वम् अपि गुणम् अस्ति तत्र रूपः एकत्वं एकत्वं द्वयत्वं कृते न कार्यकारणभावः तत् भवितुम् अर्हति तत् कारणात् तत् अधिकवृत्ति धर्म आदाय न तत्र वदामः तत् अपेक्षया न्यूनवृत्तिधर्मान् आदाय एव कार्यकारणभावः वक्तुं शक्नुमः
रूपे गुणत्वम् अस्ति इति कृत्वा रूपत्वे कारणता अस्ति द्वित्वं प्रति इति वक्तुं न शक्नुमः परन्तु विशिष्टकारणं स्वीकृत्य एव कार्यकारणभावस्य प्रदर्शनं भवति तर्हि प्रथमभागः समाप्तः अस्तु अग्रे इति शब्दस्य जनक शब्दजनकता इति आरभ्य पठतु महोदय
कथं शब्दस्य शब्दजनकता इति चेत् परामर्शस्य अनुमिते जनकत्वम् एव विशेषणज्ञानस्य ज्ञानजनकत्वम् एव शब्द शब्दोत्पात् सम्भवात् कथं शक्नुमः शब्दस्य शब्दजनकता अस्ति यथा शब्दज शब्देन शब्दज उत्पाद्यते तत् तत् कथं वक्तुं शक्नुमः शब्दस्य शब्द शब्दजनकता अस्ति यथा यथा परामर्शस्य यथा महनीमान् महनीमान् धूमान् पर्वतः अस्ति तत् तेन परामर्शेन तत् अनुमितिः जायते महनीमान् पर्वतः अस्ति तत्
वन्निमान् धूमः वा इति परामर्शः कः
परामर्श वह्निमान् वह्निमान् धूमः
वह्नि व्याप्य धूमः तत्र व्याप्तिधर्मः तु प्रमुखः अंशः प्रथमतः वदतु महोदय प्रथमं किम् अनुमितिप्रक्रियायां किम् अस्ति प्रथमं सोपानम्
प्रथमं तु तत् पक्षधर्मः अस्ति तत् कस्मिन् पक्ष परामर्शः कः इति अस्ति ततः परामर्श भवतु अथवा
एकनिमिषं प्रथमं तु पक्षधर्मता ज्ञानं
आं पक्षधर्मता ज्ञानम्
अत्र पक्षः अस्माकं प्रसिद्धं वाक्यं किम् अनुमितिविषये
यत्र यत्र धूमः वह्निः
इति व्याप्तिज्ञानं परन्तु अत्र पक्षः कः
न अवगच्छामि
क्षम्यताम् अत्र प्रसिद्धम् उदाहरणम् अस्ति धूमः पर्वते अस्ति तस्मात् काचित् अनुमितिः जायते प्रथमं सोपानम् अस्ति यत् पक्षधर्मता ज्ञानम् इति कथं जायते पक्षधर्मता ज्ञानम्
धूममान पर्वतः दृष्ट्वा तत्र अनुमितिः जायते
प्रथमे सोपाने अन्येन केनापि वक्तुं शक्यते वा? सुनीलमहोदय, किञ्चित् सहायं करोति वा?
अत्र इदानीं वयं पठामः यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यमस्ति इति वयं पठामः अत्र. अतः अत्र परामर्शः भवति साध्य वाप्यहेतुमान् पक्षः इति.
प्रथमं वक्ता किमपि पश्यति, पर्वते धूमं पश्यति, धूमस्य आधारेण एव सर्वं भवति खलु, सर्वं ज्ञायते तेन. प्रथमं सोपानम् अस्ति धूमदर्शनं, पर्वते धूमं पश्यति, पक्षधर्मता ज्ञानम् इति. पक्षः अस्ति अत्र पर्वतः इति. द्वितीयसोपानम् अस्ति यत् सुनील महोदय.
द्वितीयसोपानम् अत्र व्याप्तिज्ञानम् इति.
किम् अस्ति व्याप्तिज्ञानम्?
यत्र हेतुः अस्ति तत्र साध्यमस्ति इति.
इत्युक्ते यत्र यत्र धूमः
तत्र वह्निः अस्ति इति.
समीचीनम्. इदानीं परामर्शः कथं जायते?
परामर्शः यत्र साध्यः अस्ति, साध्येन यः पक्षः अस्ति इति परामर्शः भवति.
पुनः परामर्शज्ञानं कथं जायते, केन आधारेण वा कयोः आधारेण जायते?
अत्र हेतुः अस्ति, अतः साध्यः व्यापकः भवति, तत्र पक्षे भवति इति ज्ञानं भवति, परामर्शः भवति. अतः यत्र हेतुः भवति तत्र साध्यः अपि पक्षे भवति इति परामर्शः भवति.
अस्तु अस्तु, समीचीनम्. इत्युक्ते अत्र प्रथमं ज्ञानं पक्षधर्मताज्ञानं, द्वितीयं ज्ञानम् अस्ति व्याप्तिज्ञानं, द्वयोः मेलनेन परामर्शः जायते. परामर्शः अस्ति यत् अयं वह्निव्याप्य धूमः इति ज्ञानं, परामर्शज्ञानं. धूमं पश्यति, तदनन्तरं तस्य आत्मनि पूर्वतनज्ञानम् अस्ति. कीदृशं ज्ञानं? यत्र यत्र धूमः तत्र तत्र वह्निः इति. तयोः मेलनेन अयं धूमः वह्निव्याप्यः इति परामर्शः भवति. तदनन्तरम्
अनन्तरम् अनुमितिः भवति. तत्र वन्मान् पर्वतः इति अनुमितिः भवति.
समीचीनं. इदानीं राजेन्द्रमहोदय वदतु, अस्मिन् प्रसङ्गे सिद्धान्ति किं वदति, किमर्थम् एतत् उदाहरणम् उक्तं तेन?
सिद्धान्ति वदति यत् सजातीय कार्यकारणभावः अस्ति तत्र.
परन्तु परामर्शविषये किं, कथं कार्यकारणभावः दृश्यते?
परन्तु भेदः अस्ति तत्र. परामर्शकृते तु तत्र वह्निमान् धूमवान् व्याप्य वह्नि अस्ति, समवायसम्बन्धेन तत् स्थित्वा तत्र धूमः दृश्यते.
अस्तु, अखिला भगिनी भवती वक्तुं शक्नोति वा, किञ्चित् सहायं करोति वा अत्र?
आं भगिनि, अत्र विषयः कः इत्युक्ते अत्र शब्दजशब्दः इति प्रसङ्गः. अत्र पूर्वम् अस्माभिः दृष्टं यत् तत्र गुणत्वेन सजातीयं प्रदर्श्यकार्यकारणभावः नावाच्यः इति. तर्हि तत्र न्यूनदेशवृत्ति अधिकदेशवृत्ति इति सर्वं दृष्टवन्तः. तर्हि अत्र समाधानरूपेण तत्र सिद्धान्ति वदति यथा तत्र परामर्शज्ञानेन अनुमितिज्ञानं भवति. इत्युक्ते परामर्शज्ञानम् इति ज्ञानमस्ति, अनुमितिज्ञानम् इत्यपि ज्ञानमस्ति. ज्ञाने जातिः कः इत्युक्ते ज्ञानत्वमेव. तर्हि एकज्ञानेन अन्यज्ञानं यथा उत्पादनं भवति तर्हि तत्र सजातीयः अस्ति तद्वत् शब्दज शब्दः अपि तथैव. इत्युक्ते शब्दे शब्दत्वम् इति जाति अस्ति तर्हि सजातीयजनकता अत्र सजातीयजनकतायाः उदाहरणमस्ति वस्तुतः एतत्.
तर्हि परामर्शः अनुमितिजनकत्वं प्रति कारणं भवति. कथं सजातीयत्वम् अत्र
परामर्शः अपि परामर्शः
रेकोर्डेड्
क्षम्यतां.
हरि ओं परामर्शः इति एकप्रकारकं ज्ञानमस्ति. अनुमितिः इत्यपि भिन्नप्रकारकं ज्ञानमस्ति. तर्हि एकप्रकारज्ञानेन इत्युक्ते परामर्शज्ञानं भवति प्रथमं तदस्ति तदाधारेण अनुमितिज्ञानं उत्पाद्यते. तर्हि प्रथमं तत्र अनुमितिज्ञानं इत्यस्य जनकः अस्ति परामर्शः परामर्शज्ञानं. तर्हि ज्ञानत्वेन तत्रापि ज्ञान सजातीयः कथम् इत्युक्ते ज्ञाने ज्ञानत्वम् अस्ति, परामर्शज्ञाने अपि ज्ञानत्वम्, अनुमितिज्ञाने अपि ज्ञानत्वं. तर्हि सजातीय जनकता अत्र वर्तते इत्यस्य उदाहरणं.
समीचीनं भगिनि. अग्रे पठति वा विशेषज्ञानस्य?
विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वमिव प्रकृते शब्दात् शब्दोत्पाद असम्भवात्
पादसम्भवात् इति खलु भगिनि?
क्षम्यतां, सत्यं किञ्चित् भ्रमः जातः. शब्दात् शब्दोत्पादसम्भवात्
तावत्पर्यन्तं भगिनि.
तर्हि विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वम् इति तत्र द्वितीय उदाहरणमस्ति. विशेषणज्ञानम् इत्युक्ते तत्र विशेषणविशेष्यभावः इति तत्र नीलोत्पलः अथवा रक्तफलं रक्तं वस्त्रम् इति यदा वयं पश्यामः चेत् तत्र प्रथमं नीलः इत्युक्ते कः इति अस्माकं ज्ञानं भवेत्. तदनन्तरं नीलः घटः इति अस्ति चेत् तत्र प्रथमं नीलः इत्युक्ते कः इति ज्ञात्वा तदनन्तरमेव घटज्ञानम् अस्माकं मनसि आयाति. तर्हि नीले अस्ति नीलत्वं. तर्हि तत्र नीलत्वम् इत्युक्ते किम् इति ज्ञानं प्रथमं भवेत्. तदनन्तरं विशिष्टज्ञानम् इत्युक्ते तत्र घटस्य ज्ञानं भवति. तर्हि तत्रापि प्रथमं विशेषणज्ञानस्य ज्ञानं भवति. तदनन्तरं तेन आधारेण विशिष्टज्ञानस्य ज्ञानम् इति कृत्वा तत्रापि सजातीय जनकता वर्तते इति तत्र द्वितीयम् उदाहरणमस्ति तस्य एव प्रसङ्गस्य.
समीचीनं भगिनि, अस्तु. अग्रे सावित्री भगिनि.
दृष्टान्ते विशेषांशे
विषयांशे
क्षम्यतां यदि दृष्टान्ते विषयांशे विलक्षणानां नानादीनाम् एव जनकत्वं दाष्टान्तिके तु ककारः ककारमेव जनयति इति आशङ्केत तदा उपायान्तरेण एषो अयं समाधेयः इति आस्तां तावत्. अस्तु, अत्र सजातीय सजातीयत्वं स्वीकृत्य कार्यकारणभावस्य दृष्टान्तद्वयं दत्तमस्ति. यथा अखिला भगिनी इदानीमेव प्रदर्शितवती, परामर्शस्य परामर्शम् अवलम्ब्य अनुमितिज्ञानं, द्वयोः ज्ञानत्वम् अस्ति एव. विशेषणज्ञानस्य विशिष्टज्ञानम् इत्युक्ते विशिष्टज्ञानस्य सम्पादनार्थं विशेषणज्ञानस्य तत्त्वं सम्पादनं भवतु इति, तत्रापि ज्ञानत्वं द्वयोः अस्ति इति विचिन्त्य ज्ञानेन ज्ञानम् इत्युक्ते पूर्वमपि वयं दृष्टवन्तः खलु ज्ञानाधीनज्ञानविषयः इति तत्सर्वं तत्र प्रायः पृथक्त्वमपि च परन्तु अत्र तदेव दर्शयितुम् इच्छति ज्ञानत्वं ज्ञानत्वं जनयति इति, ज्ञानेन ज्ञानं ज्ञानेन ज्ञानस्य जनकं भवति इति द्वयोः दृष्टान्तयोः पश्यामः. अस्मिन् वाक्ये यत् लिखितमस्ति दृष्टान्ते विशेष विषयांशे विलक्षणानां ज्ञानादीनाम् एव जनकत्वम् इत्युक्ते परामर्शस्य अथवा अनुमितिज्ञानस्य सम्पादनार्थं परामर्शस्य ज्ञानम् आवश्यकं, तत्तु सम्यक् एव. परन्तु यत्र परामर्शस्य ज्ञानं सम्पादयामः तत्र विषयताः भिन्नाः भवन्ति, अनुमितिज्ञानस्य सम्पादनार्थं विषयाः अन्याः भवन्ति इति यदि कोऽपि चिन्तयति चेत् अथवा विशेषज्ञानस्य सम्पादनार्थं भिन्नः ज्ञानम् अपेक्षितम्, अपि च विशिष्टज्ञानस्य सम्पादनार्थम् इतोपि भिन्नः ज्ञानस्य आवश्यकता अस्ति इति यदि कोऽपि चिन्तयति चेत् तदा दाष्टान्तिके ककारः ककारमेव जनयति इति.
एकनिमिषं भगिनि, तस्मात् पूर्वं विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वम् इत्यस्मिन् उदाहरणे कथं भिन्ने ज्ञाने तत्र
विशेषणज्ञानस्य सम्पादनार्थं यथा भगिनी उक्तवती नीलघटं नीलत्वम् इति जात्याः ज्ञानं भवति प्रथमं, विशिष्टज्ञानस्य सम्पादनार्थं घटत्वम् इति भिन्नजातेः ज्ञानम् अपि आवश्यकता अस्ति. विशिष्टज्ञान तत्र नीलत्वम् अपि च घटत्वं द्वयोः आवश्यकं भवति.
अत्र केवलं ज्ञानतायाः आधारेण सम्पूर्णं ज्ञानं न भवति इत्युक्ते प्रत्येकस्मिन् सन्दर्भे भिन्न भिन्नविषयाः, एकस्मिन् सन्दर्भे तु रक्तं रक्तं पुष्पम्, अन्यस्मिन् प्रसङ्गे तु नीलनीलं पुस्तकम् इति भवति चेत् तत्र यद्यपि सर्वेषु ज्ञानता ज्ञानत्वम् अस्ति परन्तु भिन्नानि ज्ञानानि यथा भवति
सर्वदा ज्ञानं तु स्वविषयकमेव भवति, प्रत्येकस्मिन् प्रसङ्गे विषयता भिन्नः भवति इति तेषां चिन्तनं.
समीचीनम्. अग्रे अग्रे अन्य कोऽपि भारती भगिनी
अस्मि. यदि प्रयत्नं करोमि, यदि दृष्टान्ते विषयांशे विलक्षणानां ज्ञानादीनाम् एव जनकत्वं दृष्टान्तिके तु ककारः ककारमेव जनयति इति आशाङ्केत
तावत्पर्यन्तं भगिनी वदतु कृपया. अत्र दृष्टान्ते इत्युक्ते कस्य सूचनं भवति? दृष्टान्तस्य सूचनं
विशेषण ज्ञानस्य ज्ञानस्य दृष्टान्त.
हा, उदाहरणद्वयं दृष्टं खलु.
परामर्शस्य अनुमति च
जनकत्वं. हा हा, तदनन्तरं
विशेषणज्ञानस्य च
ज्ञानस्य विशिष्टज्ञानजनकत्वम् इति. हा,
त्रीणि अस्ति भगिनि, परमर्शस्य अनुमतिज्ञानं, विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वम्
इति
दृष्टान्ते. यदि दृष्टान्ते विषयांशे विलक्षणानां ज्ञानादीनाम् एव जनकत्वम्.
सावित्री भगिनी उक्तवती, किञ्चित् पुनः उक्त्वा अग्रे वदतु भगिनि.
सावित्री भगिन्याः अहं
श्रुतं वा भवत्या?
न श्रुतम्.
अस्तु भगिनि, एकवारं पुनः वदतु.
अस्तु भगिनि, अस्तु अहं वदामि वा?
आम् आम् आम्.
अस्तु भगिनि, अत्र यत् लिखितमस्ति सजातीय गुणत्वेन कार्यकारणभावः इति, सजात्यं प्रदर्श्य कार्यकारणस्य दृष्टान्तद्वयं दत्तमस्ति. यदा भवती उक्तवती एव परामर्शज्ञानस्य अनुमितिज्ञानजनकत्वम् इत्युक्ते अनुमितिज्ञानं सम्पादनार्थं परामर्शस्य आवश्यकता अस्ति खलु. इदानीमेव सुनील् महोदय उक्तवान् परामर्शम् इत्युक्ते, परामर्शः इत्युक्ते यत्र पक्षे धूमः अस्ति इति प्रथमं अस्माकं प्रतिष्ठं भवति. तदनन्तरं वयं अन्वयदृष्टान्तं जानीमः, यत्र यत्र धूमः तत्र तत्र वह्निः अस्ति इत्यपि जानीमः. द्वयोः मिलित्वा वयं जानीमः यत्र कुत्रापि अन्यत् पर्वते धूमं पश्यामः चेत् तत्र परामर्शः जायते. वह्नि व्याप्य धूमवान् वा, अथवा वह्नि व्याप्य धूमवान् अयं पर्वतः इति इत्युक्ते तत्र अनुमितिज्ञानस्य सम्पादनार्थम् अन्यत् ज्ञानद्वयम् आवश्यकम् अस्तु. द्वयोः ज्ञानमेव, परन्तु द्वितीयज्ञानस्य सम्पादनार्थं पूर्वतन प्रत्यक्षज्ञानमपि भवेत् अपि च अन्वयदृष्टान्तस्य अपि अन्वयसहकारस्य अपि ज्ञानं भवेत्. ज्ञानेन ज्ञानं भवति इति प्रथमदृष्टान्तः. द्वितीयदृष्टान्तमस्ति विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वम् इत्युक्ते उन्नतः बालकः इति वदामः, औन्नत्यम् इति जानीमः प्रथमं, तदनन्तरमेव उन्नतः बालकः इत्यस्य अर्थः वयं जानीमः. अस्तु, प्रथमम् औन्नत्यम् इति गुणं जानीमः, तदनन्तरं बालकत्वम् औन्नत्यम् इति द्वयोः मिलित्वा एवमस्ति बालकः इति ज्ञानं भवति. अत्रापि ज्ञानेन ज्ञानजनकः तदेव दृष्टान्तद्वयं दत्तमस्ति. परन्तु अस्मिन् वाक्ये यत् लिखितम् अस्ति सः वदति पूर्वपक्षी इति चिन्तयतु.
तत्तु भारती भगिनी वदति. इदानीं दृष्टान्तः कः इति भवती अवगच्छति खलु?
यदि दृष्टान्ते विषयांशे विलक्षणानां ज्ञानादीनमेव जनकत्वं दृष्टान्ते तु ककारमेव जनयति इति आशाङ्केत तदा उपायान्तरेण
तावत्पर्यन्तं भगिनि आशङ्केत इति पर्यन्तं प्रथमं विलक्षणज्ञानम् इति कथं वक्तुं शक्नुमः? प्रतिपक्षी वदति एतयोः दृष्टान्तयोः यद्यपि सजातीयत्वम् इति भासते तथापि विलक्षणज्ञानम् एव उदेति इति सः वदति. कथम् इति भवती किञ्चित् वदति वा?
कथं विलक्षणं
ज्ञानम् इति परामर्शविषयं स्वीकृत्य वदतु भगिनि. परामर्शः इति एकं ज्ञानम्.
परामर्शः इत्युक्ते धूमः पश्यति.
वह्निव्याप्य धूमवान् पर्वतः इति परामर्शज्ञानम्. तत् ज्ञानम् अतिरिक्तं भवति वा अनुमतिज्ञानात्?
तत् अनुमतिज्ञानं भवति.
प्रथम परामर्शज्ञानेन अनुमतिः भवति. परन्तु अत्र प्रतिपक्षी वदति यत् दृष्टान्ते विलक्षणानां ज्ञानादीनामेव जनकत्वं. किमर्थं वदति इत्थम्?
इत्युक्ते
तुल्यं ज्ञानम् अत्र नास्ति इति सः वदति. इत्युक्ते परामर्शज्ञानम् अपि तु अनुमितिः ज्ञानं द्वौ समानौ न, द्वे समाने न इति सः वदति. कथम्
द्वौ समानौ इति
न समाने द्वे ज्ञाने समाने न इति सः वदति.
परामर्शज्ञाने यः वह्नि पश्यति
प्रथमं. आं भगिनि वदतु.
अनुमतिज्ञाने भ्रमः भवति.
अनुमतिज्ञाने किं भगिनि?
प्रत्यक्षं वह्नि न पश्यति. परन्तु
समीचीनं.
परन्तु अनुमिति भवति.
हा समीचीनं. परामर्शज्ञानं प्रत्यक्षेन जायते. यतोहि परामर्शज्ञानं पक्षधर्मता ज्ञानम् अपि तु व्याप्तिज्ञानयोः आधारेण भवति. पक्षधर्मता ज्ञानं साक्षात् एव भवति खलु. प्रत्यक्षज्ञानं धूमं दृष्ट्वा सः वदति पक्षे वा पर्वते धूमः अस्ति इति प्रत्यक्षज्ञानं. व्याप्तिज्ञानम् अपि प्रायः प्रत्यक्ष वा अन्य कुत्रापि श्रुतं, प्रत्यक्षेण श्रुतं वा दृष्टम्. अतः परामर्शज्ञानं प्रत्यक्षम् इति. परन्तु अनुमितिः विषये तत्र प्रत्यक्षता नास्ति. नाम आधारेण एव अनुमितिः एव तत्. अतः अनुमितिज्ञानम् अतिरिक्तं भवति. तस्मिन् अनुमितित्वम् अस्ति. परामर्शज्ञाने परामर्शत्वम् अस्ति इति कृत्वा विलक्षणे ज्ञाने इति प्रतिपक्षी साधयति. अस्तु, पुनः राजेन्द्रमहोदय, विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वम् इत्यस्मिन् दृष्टान्ते वैलक्षण्यं किम् अस्ति?
समानं न परामर्शज्ञानं अनुमतिज्ञानं समान समाने
द्वितीयम् उदाहरणं महोदय, द्वितीयम् उदाहरणम् द्वितीयम् उदाहरणम्
अत्र तु विशेषणज्ञानस्य यथा प्रथमं तु नीलः तथा नीलत्वं तत्र ज्ञानं भवति. तत्र अनन्तरं पश्यामः नीलघटः, नीलः घटः तत्र तु नीलत्वं तु घटे अस्ति परन्तु घटत्वम् अपि अस्ति, तत् ज्ञानमस्ति. तत् कारणतः तत् वाणः न स्ताः द्वौ, किञ्चित् विभेदः अस्ति ज्ञाने, तथा सजाति न वक्तुं शक्नुमः.
हा कथं, किञ्चित् इतोपि विस्तरेण वदतु महोदय. विशिष्टज्ञानस्य विशिष्टज्ञानजनकत्वम् इत्यस्मिन् विषये कति विषयाः सन्ति?
तत्र तु विशेषणज्ञानस्थले तु तत्र नीलत्वम् अस्ति, गुणः अस्ति, नीलत्वम् अस्ति, तत्र समवायसम्बन्धेन तत्र अस्ति, समवायसम्बन्धेन अस्ति, तत्र अपि संसर्गता अस्ति विषये.
समीचीनता
विषयः विशेषणज्ञानस्य अत्र विशिष्टज्ञानजनकत्वं विशिष्टज्ञानः तत्र तु नीलत्वम् अपि अस्ति परन्तु घटत्वम् अपि नीलः घटः वदामः, घटः अपि अस्ति नीलः तु समवायसम्बन्धेन नीलत्वं समवायसम्बन्धेन घटे वर्तते तथा तत्र सम्बन्धः भिन्नः अस्ति तत्र कारणतः तत् विलक्षण यथा वदामः नीलत्वम् अपि तु नीलः घटः तत् विलक्षण अस्ति तत् ज्ञानेषु समानः.
इत्युक्ते अत्र नीलं पुस्तकम् इति स्वीकुर्मश्चेत् नीलं तस्मिन् प्रकारता अवच्छेदकं ज्ञानं, नीलम् इति विशेषणपदं तत्र खलु. पुस्तकस्य विशेषणम् अस्ति, पुस्तकं विशिष्यते नीलत्वेन विशिष्यते. अत्र नीलत्वे प्रकारता अवच्छेदकं ज्ञानम् अस्ति पुस्तके. विशेषता अवच्छेदकं ज्ञानम्, आम् तयोः समवायसम्बन्धः यथा भवता उक्तं, सः सम्बन्धः संसर्गता अवच्छेदकं ज्ञानम् आहत्य त्रीणि त्रिविषयकं ज्ञानम् अस्ति अस्मिन् विषये. परन्तु प्रत्येकं सन्दर्भे यद्यपि प्रकारता वा विशेष्यता वा संसर्गता अस्ति प्रत्येकं विषये, यदा विशेषणम् अस्ति, तथापि प्रत्येकं सन्दर्भे ज्ञानं भिन्नं भवति. अन्यस्मिन् प्रसङ्गे भिन्नं रूपं वा भिन्नं अन्यत् किमपि भवति, अतः विशिष्टज्ञानं भवति इति. विशिष्टज्ञानजनकत्वे अपि वैलक्षण्यं भवति इति. अस्तु, अग्रे
अत्र वदति तत् दृष्टान्तः अस्ति विशेषज्ञानस्य विशिष्टज्ञानजनकत्वम् अथवा परामर्शस्य अनुमतिजनकत्वं यथा तत् स्वीकुर्मः दृष्टान्ते तत् तत् आधारेण तत्र किञ्चित् आशङ्का आगच्छति यथा ककारतः ककारम् एव जनयति तत् न वक्तुं शक्नुमः तत्र किञ्चित् आशङ्का आगच्छति तत्र दृष्टान्त आधारेण तत् किञ्चित् आशङ्का आगच्छति
अन्यत्र कुत्रापि एतादृशी स्थितिः नास्ति सजातीयत्वं न दृष्टमेव प्रत्येकस्मिन् उदाहरणे वा प्रत्येकस्मिन् दृष्टान्ते विलक्षणज्ञानजनकत्वम् इति अस्ति तर्हि कथं ककारः ककारमेव जनयति इति वक्तुं शक्नुमः इति सः पृच्छति आम् अग्रे सुनीलमहोदय तदा इति आरभ्य
तदा उपायान्तरेण क्लेशायं समाधेयः इति आस्तां तावत् यदा एतादृशवैलक्षण्यम् अस्ति चेत् अत्र उपायान्तरेण एव एतस्य समाधानं स्वीकरणीयमिति वा
हां हाम् इत्युक्ते ककारः ककारमेव जनयति इति इति न वक्तुं शक्नुमः चेत् तर्हि कस्य आधारेण एतस्य समाधानं भवति अन्येन उपायेन एव भवितुम् अर्हति इति सः वदति ककारः ककारमेव जनयति इति भवान् किं चिन्तयति
ककारः अन्य वर्णेन सह अन्यध्वनिः अपि जनयति
एवं वा इत्युक्ते ककारः चकारं जनयितुं शक्नोति वा
तादृशं न भवति परन्तु
वयं पूर्वं दृष्टवन्तः खलु प्रक्रिया शब्दज शब्दस्य प्रक्रिया तत्र किं भवति क शब्दः निर्गच्छति चेत् मुखात् अतः भवान् चिन्तयति यत् सा जातीयत्वम् अस्ति इति सजातीयगुणजनकत्वम् अस्ति इति वा
तदेव चिन्तयामि किञ्चित् ब्रह्मापि अस्ति
अस्तु अन्य अन्य कस्यचित् मतमस्ति वा अस्मिन् विषये
यस्य आधारेण दृष्टान्त आधारेण यथा वक्तुं शक्नुमः तत्र दृष्टान्ते अपि सम्यक् सामान्यता नास्ति तत् साजात्यं न दृश्यते तत् कारणात् तत् ककारः ककारमेव जनयति तत् न वक्तुं शक्नुमः तत् आशङ्का
परन्तु भवतः अनुभवः कः प्रत्यक्षेन किं दृष्टम्
यदा वक्तु ककारः उत्पाद्यते वक्तु मुखे तत्र तु श्रोतुः श्रोतुः अपि श्रोतेन्द्रियं ककारः एव श्रूयते
इति प्रक्रिया परन्तु भिन्नं मतम् अपि अस्ति अत्र यत् प्रथमककारः तु भिन्नः श्रोत्रेण यत् श्रुतं भवति यत् श्रूयते तद् भिन्नः इति तर्हि सजातीयगुणत्वम् अस्ति वा सावित्री भगिनी किं चिन्तयति
भगिनि प्रश्नः न अवगतः मया प्रश्नः कः
प्रश्नः अस्ति यत् अस्मिन् प्रसङ्गे ककारः ककारमेव जनयति इत्यस्मिन् प्रसङ्गे शङ्का कथम् उदेति?
ओ अस्तु, मम चिन्तनम् अस्ति अत्र दृष्टान्तः अन्यत् सूचयति, परन्तु अस्मिन् प्रसङ्गे प्रकृते ककारः तु ककारमेव जनयति. इत्युक्ते यथा रजमहोदय उक्तवान्, दृष्टान्तः समीचीनः नास्ति इति चिन्तयति चेत् तदा अन्यत् उदाहरणम् अथवा अन्यत् उपायेन क्लेशं निवारयितुं शक्नुमः, परन्तु तत्र न गच्छति सः. अत्र दृष्टान्तद्वयं दत्तमस्ति, यत्र ज्ञानेन ज्ञानम् उत्पादयति, परन्तु यदि कोऽपि चिन्तयति चेत् परामर्शज्ञान अवगमनार्थं भिन्नाः विषयाः आवश्यकम्, तत्तु भिन्नविषयकज्ञानम्, अपि च अनुमितिज्ञानं भिन्नविषयकज्ञानं, तत्र समानता नास्ति, अथवा तत्र विशेषणस्य विशिष्टज्ञानस्य तुलना भवति, तयोः साम्यं नास्ति इति यदि कोऽपि वदति चेत् अत्र ककारं ककारमेव जनयति, गकारं गकारमेव जनयति, दृष्टान्तः समीचीनः नास्ति यदि कोऽपि वदति चेत् तदा अन्यत् उदाहरणम् अथवा अन्यत् उपायं चिन्तयितुम् आवश्यकता भवति इति सः वदति, परन्तु तत्र न गच्छति सः इति मम चिन्ता आसीत्.
सः प्रतिपक्षी वदति यत् दृष्टान्ते इत्युक्ते उदाहरणयोः ज्ञानं, यद्यपि ज्ञानत्वम् इति जातिः सामान्यमस्ति, तथापि विलक्षणज्ञानजनकत्वमेव भवति. तर्हि कथं ककारः ककारमेव जनयति इति वक्तुं शक्नुमः इति तत्र शङ्का भवेत् प्रायः इति सः वदति.
परन्तु तस्य चिन्तनमस्ति यत् न्यूनवृत्तिधर्मान् आदाय एव अस्य प्रतिपादनं भवति, तस्य ज्ञानस्य भिन्नविषयता इति न चिन्तयामः. ज्ञानत्वं तु समानं, ज्ञानत्वं द्वयोः स्थाने समानं.
भगिनी अत्र एतदपि अस्ति, तत्र केवलं तत्र ज्ञानत्वं तु समानं, परन्तु ज्ञानत्वम् इदानीं मास्तु, तत्र ज्ञानत्वम् इति सजातीयत्वं न स्वीकुर्मः चेदपि तत्र सजातीयविषयः नास्ति, परन्तु अत्र विलक्षणज्ञानमेव भवति. इत्युक्ते परामर्शज्ञानेन यद् अनुमितिज्ञानं भवति तत्तु भिन्नं खलु, तद्वत् विशेषणज्ञानेन विशिष्टज्ञानं, तत्र तर्हि तत्र विषयः भिन्नः इति कृत्वा इति यथा अस्ति चेत्, परन्तु अस्माकं दार्ष्टान्तिके इत्युक्ते अस्माकं तत्र यद्वयम् इदानीं यस्मिन् प्रसङ्गे स्मः, तत्र तु ककारः ककारमेव जनयति इति आशङ्का भवति खलु. इत्युक्ते तत्र दृष्टान्ते विषयः भिन्नः, इत्युक्ते एकविषयेन भिन्नविषयः, एकज्ञानेन भिन्नज्ञानं भवति, परन्तु अत्र तु ककारेण ककारः एव जनयति इति तत्र तदेव तत्र भेदः अस्ति, तत्र दृष्टान्तः अपि च अस्माकं प्रसङ्गः तयोः मध्ये तदेव भेदः अस्ति इति अस्ति चेत् तर्हि उपायेन्द्रेण तस्य समाधानं करणीयम् इति तत्र एव अस्माकं कक्षायां तत्र किञ्चित् चर्चा जाता, यत्र महोदयेन अपि उक्तं तत्र ककारेण कः ककारः जनयति इति चेत् यः ककारः तत्र प्रथमं वक्ता मुखात् यः ककारः वक्तुः मुखात् आगच्छति स एव ककारः श्रोतुः श्रूयति इति न खलु, तत्र भिन्नककारः अस्ति. तर्हि ककारद्वयोः मध्ये ककारत्वम् इति सामान्यमस्ति वा अथवा विषयान्तरम् अस्ति वा इति प्रश्नः. तर्हि तत् स्वीकृत्य एव तत्र समाधानं भवेत् इत्युक्ते तत्रापि विषयः भिन्नः एव समानः नास्ति. यथा दृष्टान्ते विषयः भिन्नः आसीत् तद्वत् अत्रापि प्रायः विषयः भिन्नः एव इति किञ्चित् समाधानं प्राप्तवन्तः शनिवासरे इति मम अवगमनं.
मम स्मरणे केनापि उक्तं यत् तत्र भिन्नता अस्ति चेत् कथं प्रथमशब्दस्य श्रवणं भवति श्रोतेन्द्रियेण. तर्हि भिन्न भिन्नविधश्रवणमेव भवति खलु. ककारः ककारं न भवति, अन्यत् भिन्न अन्यत् भिन्न ध्वनिः भवति चेत् शब्दस्य आधारः एव न आधारः नष्टः जातः इति खलु. भिन्नता वर्तते इति कथं वक्तुं शक्नुमः. तत्र शब्दः इति प्रक्रियायां प्रथमशब्दात् भिन्नाः शब्दाः उत्पद्यन्ते येन यैः वा येन प्रथमशब्दस्य श्रवणं भवति. क शब्दः उत्पद्यते चेत् क शब्दस्य श्रवणमेव भवति अन्ततो गत्वा.
सत्यं, परन्तु यः क शब्दः प्रथमं उक्तं तदेव क शब्दः उक्तः तदेव क शब्दः श्रुतः इति नास्ति खलु.
तर्हि
तदेव तदेव तत्र भेदः अपि.
हा, भिन्न अक्षरः वा भिन्नशब्दः इति अङ्गीकृतम्, परन्तु जातिः तु एका एव खलु भगिनि. ककारत्वम् अस्ति प्रथमे शब्दे, अन्तिमे शब्दे अपि अन्तिमे अक्षरे अपि ककारत्वमेव अस्ति
भगिनि. अत्र जातिव्यक्तियोः सम्बन्धः प्रत्येकस्मिन् व्यक्तिः भिन्नः एव. नूतनककारः ककारः भवतु, परन्तु सः व्यक्तिगत वैलक्षण्यं भवति एव.
समीचीनं, व्यक्तित्वं भिन्नम्
इत्युक्ते भगिनि तदपि चिन्तयतु, तत्र परामर्शज्ञानेन यदा अनुमितिज्ञानम् इति भवति, तत्र परामर्शज्ञानेन अनुमितिज्ञानमेव भवति खलु, न तु व्याप्तिज्ञानं. तत्र क्रमः तु अस्ति एव, यथा ककारेण ककारः जनयति इति वदामः, तद्वत् तत्रापि एकः नियमः अस्ति, परन्तु तत्र भेदः वर्तते. इत्युक्ते परामर्शज्ञानं भिन्नं, अनुमितिज्ञानं भिन्नं. तद्वत् ककारेण ककारः जायते इति अस्ति चेदपि प्रथमककारः भिन्नः द्वितीयककारः भिन्नः इत्येव वार्ता खलु अत्र. इत्युक्ते कश्चन नियमः वर्तते येन ककारेण सकारः न जायते, परन्तु ककारेण ककारः एव.
अत्र यथा महोदयेन उक्तं, जातिः कियत्पर्यन्तं जातिः इति वक्तुं शक्नुमः. इत्युक्ते प्रथमं तु सत्ता इति अस्ति, तदनन्तरं द्रव्यत्वं, तदनन्तरं पुस्तकत्वं, तदनन्तरं विशिष्टं पुस्तकम् इति. तर्हि यथा पूर्वमुक्तमस्ति, अधिकवृत्तिधर्मं स्वीकरणेन लाभः न भवति, साजात्यं न प्रयोजकं भवति इति अस्ति. अस्तु, अग्रे सरेम वा. पुष्पा भगिनी. आम् महोदय,
प्रश्नः अस्ति. यदा वयम् अत्र शब्दस्य विषये व्यावहारिकरीत्या वयं वदामः, शब्दस्य किमपि माध्यमम् आवश्यकम् इति वदामः, इत्युक्ते शब्दस्य प्रयाणार्थम्, अथवा इदानीम् अहं वदामि दूरवाण्या अथवा तादृशमाध्यमेनैव भवन्तः शृण्वन्ति अत्र, परन्तु एतादृशमाध्यमस्य किमपि प्रतिपादनं नास्ति अत्र.
वैज्ञानिकरीत्या माध्यमं तु अपेक्षितम् एव, परन्तु अत्र न्यायशास्त्रे तु तस्य चर्चा एव न अस्ति.
भगिनी अत्रापि शुकोनमहोदयेन किञ्चित् खलु अस्माकं वाट्साप् मध्ये अपि तत्र सः किम् उक्तवान् इत्युक्ते, तत्र सः अस्ति वा इति न जाने, अस्ति चेत् सः एव प्रायः वदेत्, नो चेत् तत्र मम अवगमनमासीत् सः मुक्तावली अथवा किमपि अन्यपुस्तकं दृष्ट्वा उक्तवान् तत्र शब्दस्य कृते तत्र
वायुः
इति निमित्तकारणं भवति, निमित्तकारणं भवति, तर्हि अत्र वायौ आवश्यकं भवति, येन येन तत्र शब्दः शब्दस्य गतिः वायौ अस्ति इति. तर्हि तत्र वायुः नास्ति चेत् शब्दः न श्रूयते इति, तत्र निमित्तकारणत्वेन वायुः स्वीकृतम् इति. तत् प्रायः सुनील् महोदयस्य प्रश्नस्य समाधानं स्यात्.
अतः एव अन्तरिक्षे शब्दस्य शब्दः न श्रूयते. इति प्रतिपादनम् अन्य केनचित् कृतम् इति मन्ये. शुकवनमहोदयः तस्य सम्भाषणम् आसीत् केनचित् सह, परन्तु तर्कसङ्ग्रहे न दृष्टम्. अत्रापि विस्तरेण इति न किमपि न उक्तं तस्मिन् विषये. अस्तु, पुष्पा भगिनी पठति वा? सर्वव्यवहारहेतुर्गुणः इति आरभ्य.
अस्तु भगिनि. सर्वव्यवहारहेतुगुणः ज्ञानं बुद्धिः द्विविधा, स्मृतिः अनुभवः च. द्विविधा तु स्मृतिः अनुभवः, सर्वव्यवहारहेतुगुणः ज्ञानं बुद्धिः. बुद्धिलक्षणे समासविचारः, तत्तु बुद्धिं लक्षयति सर्वव्यवहारहेतुः इति. बुद्धिं लक्षयति सर्वव्यवहारहेतुः इति. अतीतादिव्यवहार हेतुरित्यादौ हेतुः इति आदौ काललक्षणे अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः. तत्र षष्ट्यर्थः विषयत्वम्.
तावत्पर्यन्तं भगिनि.
बुद्धिं लक्षयति सर्वव्यवहारहेतुः इति किं वदति शास्त्ररीत्या न बुद्धिं
लक्षणवाक्यमस्ति.
लक्षणवाक्यमस्ति. अतीतादिव्यवहारहेतुः इति आदौ काललक्षणे अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः. तत्र षष्ट्यर्थः विषयत्वम्. अस्तु, अतीतादिव्यवहारहेतुः इति आदौ तु प्रथमार्थं न
प्रथमार्थम् इत्यादौ इत्युक्ते इत्यादय विषयौ इति विषये विषयेषु
सति सर्व अति अति
अतीतः वा वर्तमानविषयः वा भविष्यद्विषयः इति
अस्तु काललक्षणे अतीतादेः व्यवहारः तत्तु काल काललक्षण प्रति अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः विग्रहः तु न जानामि
इति विग्रहवाक्यम् अतीतादिव्यवहारहेतुः इति अस्य लक्षणवाक्ये कस्य लक्षणवाक्ये
अभिप्रेतः तु अभिप्रायम् अस्ति इति
अङ्गीकृतः
तत्र षष्ट्यर्थः विषयत्वं षष्ट्यर्थः षष्ट्य अर्था षष्टि षष्ट्यर्थः तत्तु पञ्चम अर्था अहं दृष्टं न तथैव षष्ट्यर्थः इति
इत्युक्ते षष्टिविभक्तिः इति अस्ति इदानीं वदतु भगिनि अतीतादेः व्यवहारः इति अस्ति
तां न ते व्यवहारः विषयत्वम्
इत्युक्ते काललक्षणे अतीतादे व्यवहारः व्यवहारः इत्युक्ते किं
व्यवहारः तु व्यापारः न
ज्ञानजनकशब्दप्रयोगः इति
ज्ञानजनकप्रयोगः अस्तु अस्तु
तर्हि प्रयोगः कः शब्दप्रयोगः अस्माकं शब्दप्रयोगः कः अस्मिन् विषये अतीतादेः व्यवहारः
शब्दप्रयोगः किं भगिनि
शब्दप्रयोगः इत्युक्ते साधारणतया किं वदामः
शब्दप्रयोगः तु कार्यम्
अतीतः घटः इति खलु
अतीतः घटः
तर्हि अत्र अतीतः घटः इति अतीतः इति विषयं इति विषयः प्रथमविषयः अतीतः घटः इति द्वितीयविषयः तर्हि अतीतः इति स्वीकुर्मश्चेत् विषये विषयत्वम् अस्ति तर्हि अतीतादेः व्यवहारः इत्युक्ते अतीतविषयस्य व्यवहारः
अतीतविषयस्य व्यवहारः अस्तु इति विग्रहवाक्यः वाक्यस्य अभिप्रेतः तत्तु अभिप्रायं कुर्वन्ति इति
इत्युक्ते अस्माकं बोधः जायते खलु अतीतादेः व्यवहारः इति
विग्रहलक्षणे
हा
अभिप्रेतः तु अर्थं तु अभिप्रायं करोति इति न
प्रायः अङ्गीकृतः इति दृष्टं मया
अस्तु अभिप्रायम् अङ्गीकृतः
इति अर्थः अङ्गीकृतः इति अस्तु अग्रे एकनिमिषं भगिनि अन्येन अखिला भगिनि वदति वा पठति वा
भगिनि तस्य च ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः तद् घटकं यत् ज्ञानं तेन सह अन्वयः अस्तु तस्य च ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः इत्युक्ते व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति वयं जानीमः तर्हि तत्र अतीतादेः इत्यस्य अन्वयः भवति तत्र तत्र तेन शब्दप्रयोगेन यद् ज्ञानं जायते तस्य सह तस्य तत्पदस्य अन्वयः भवति. तत् अग्रे पठामि वा भगिनि? तथा च अतीतविषयकज्ञानजनकशब्दप्रयोगः इति अर्थः सिद्ध्यति. इत्युक्ते भवती यत् पूर्वम् उक्तवती तदेव, इत्युक्ते अतीतादेः व्यवहारः इत्युक्ते अतीतविषयकज्ञानम् इति तादृश ज्ञानजनकशब्दप्रयोगः इति भवति. इत्युक्ते अतीतादिव्यवहारहेतुः इति यदा वदामः चेत् तत्र अतीतविषयकज्ञानं तादृशज्ञानस्य जनकशब्दप्रयोगः इति अर्थः भवति. इदानीं प्रकृते तु न सर्वस्य व्यवहारः इति अर्थः, किन्तु सर्वे ये व्यवहारः सर्वव्यवहाराः इति कर्मदारयः. अस्तु, तर्हि इदानीं तत्र तदेव उदाहरणं स्वीकृत्य तत्र अस्माकं बुद्धिरक्षणवाक्ये यदस्ति सर्वव्यवहारहेतुः गुणः ज्ञानं बुद्धिः इति, तत्र स्वीकुर्मः चेत् तत्र किं भवति, सर्वविषयकज्ञानजनकशब्दप्रयोगः इति आयाति. इत्युक्ते यथा अतीतादेः व्यवहारः तद्वत् सर्वस्य व्यवहारः इति भवति. इत्युक्ते तत्र परन्तु तत्तु न इष्टम् इति कृत्वा तत्र सर्वे ये व्यवहाराः सर्वव्यवहाराः इति कर्मधारयः इति समासः स्वीकृतः, न तु सर्वस्य व्यवहारः इति अर्थे.
सर्वस्य व्यवहारं सर्वस्य व्यवहारः इति स्वीकृतं चेत् किं भवति?
इत्युक्ते केवलं सर्व इति विषयस्य एव ज्ञानं भवति, न तु सर्वे व्यवहाराः इति, यत्तु अस्माकम् इदानीम् इष्टमस्ति. तर्हि तत्र सर्वस्य इति विशिष्टज्ञानस्य एव ज्ञानं भवति, न तु अन्यस्य इति कृत्वा तत्र सर्वस्य व्यवहारः इति न इष्टं, परन्तु सर्वे ये व्यवहाराः इति स्वीकृतम्.
हा, समीचीनं भगिनि. अस्तु, अग्रे सुनील् महोदय.
तेन ज्ञानजनकशब्दप्रयोगमात्रं प्रति ज्ञानस्य कारणत्वं लभ्यते. अत्र एतादृश ज्ञानजनकशब्दः अस्ति चेत् तस्य प्रयोगमेव स्वीकृत्य ज्ञानस्य कारणत्वमपि वयं पश्यामः.
किं कारणं भवति किं प्रति?
ज्ञानजनकशब्द प्रति कारणं भवति किल.
किं कारणं भवति?
व्यवहारः वा अत्र
ज्ञानजनकशब्दप्रयोगप्रयोगं प्रति प्रयोगमात्रं प्रति इत्युक्ते व्यवहारं प्रति ज्ञानस्य कारणत्वम् इत्युक्ते प्रथमं वक्ता किमपि पश्यति येन तस्य आत्मनि ज्ञानं जायते, तदनन्तरं सः वदति अतीतः घटः वा यत्किमपि वदति, रक्तं पुस्तकम् इति किमपि वदति, तदेव व्यवहारः अस्ति खलु. ज्ञानम् उदेति, प्रथमं ज्ञानम् उदेति तस्य आत्मनि, तस्मात् एव सः तत् ज्ञानं प्रकटीकरोति. अस्तु, परन्तु अत्र किम् अस्ति विषयः?
अत्र
कर्मधारे समासः एव इति इत्यस्य प्रयोगः लक्षणवाक्ये, तेन किं तेन कः अर्थः?
अत्र कर्मधारय इति स्वीकृत्य अत्र सर्वे व्यवहारः इति स्वीकुर्मः इति. अतः एतादृश शब्दप्रयोगं प्रति अत्र ज्ञानस्य कारणत्वं लभ्यते इति.
इत्युक्ते ये केऽपि व्यवहाराः भवन्तु तान् प्रति ज्ञानं कारणम्,
न तु पूर्ववत् षष्ठी तत्पुरुषः इति.
हा, षष्ठी तत्पुरुषः चेत् किं भवति?
तत्र केवलं सर्वेदि सर्वस्य एव अर्थः भवति
इति कृत्वा व्यवहारः किं भवति?
व्यवहारः केवलं तत्र सर्वस्य इति एव भवति, अन्यविषयस्य व्यवहारः न, तादृशज्ञानं न उत्पादयति.
हा, इत्युक्ते षष्टितत्पुरुषः अस्ति चेत् सर्वस्य व्यवहारः इति आयाति. सर्वस्य इत्युक्ते यदि अहं घटं पश्यामि तर्हि सर्वम् इति कृत्वा अहं सर्वं जानामि इति आयाति, तादृशं ज्ञानं प्रायः आयाति एव. परन्तु सर्वे व्यवहाराः ये, तेषां ज्ञानम् इत्युक्ते यत्किमपि भवतु, अयं घटः, घटम् अहं जानामि, अहं पश्यामि, इदं पुस्तकम्, अहं पुस्तकं पश्यामि इति व्यवहाराः भिन्नाः. सर्वे ये केऽपि व्यवहाराः भवन्तु तेषां कारणं ज्ञानम् इति, न तु अहं सर्वं जानामि इत्यस्य ज्ञानं न कदापि उदेति. अस्तु, अग्रे पठतु महोदय.
तथा सति सर्वविषयं यत् ज्ञानं सर्वं प्रमेयमित्याध्याकारं तादृशज्ञानानुकूलव्यवहारं प्रत्येव ज्ञानस्य कारणता लभ्येत, न तु व्यवहारमात्रं प्रति. अत्र यत्र सर्वविषयं ज्ञानमस्ति चेदपि सर्वं प्रमेयमित्याद्याकारं सर्वं प्रमेयं
सर्वं ज्ञातम् इति सर्वविधं ज्ञानं ज्ञातम् इत्यस्य इति आकारं भवति
प्रमेयमित्याद्याकारम् इत्युक्ते
प्रमेयम् इति इत्यादि आकारम् इति विग्रहं भवति तत्र. प्रमेयः इत्युक्ते ज्ञानमेव खलु, इत्यादि आकारं भवति. सर्वं प्रमेयम् इति आकारम् इत्युक्ते रूपं, शब्दरूपं, वाक्यस्य रूपं भवति.
तादृशज्ञानानुकूलव्यवहारं प्रति एव ज्ञानस्य कारणता लभ्येत, न तु व्यवहारमात्रं प्रति. अत्र एतादृशज्ञानस्य सर्वज्ञानस्य अनुकूलव्यवहारं प्रति एव ज्ञानस्य कारणता लभ्येत. परन्तु अत्र व्यवहारं प्रति न इति,
इत्युक्ते विशिष्टव्यवहारं प्रति ज्ञानं न सूच्यते अनेन. अस्तु, अग्रे शुकवनं महोदय प्रायः नास्ति. राजेन्द्रमहोदय.
आं भगिनि. इष्टं च
तथा सति
तथा सर्वविषयकं यत् ज्ञानं सर्वं प्रमेयम् इत्यादिकारं तादृशज्ञान अनुकूलव्यवहारं
तदनन्तरं क्षम्यतां तदनन्तरम् इष्टं च
अस्तु भगिनि इष्टं च अयं घटः इति व्यवहारं प्रति अपि ज्ञानस्य कारणत्वं तज्जन्यं च ज्ञानं न सर्वविषयकं विषयकम् इति षष्टितत्पुरुषाङ्गीकारे तादृशव्यवहारे जनके घटज्ञाने अव्याप्तिर् इति कर्मधार्य एव साधुः इष्टं च अयं घटः यथा अयं घटः तत् इच्छामः चेत् तत् इति व्यवहारं प्रति अपि ज्ञानस्य कारणत्वं यथा अयं घटः इच्छामः तत् सः ज्ञानः सः तादृशी व्यवहारः शब्दप्रयोगः प्रति अपि ज्ञानस्य कारणत्वं सः व्यवहारः ज्ञानस्य कारणत्वम् अस्ति ज्ञानजनयति
कीदृशज्ञानस्य कारणत्वं घटं पश्यति चेत्
अयं घटः
अयं घटः इति ज्ञानं
अयं घटः तत् शब्दप्रयोगः प्रत्येकस्य ज्ञानस्य कारणत्वम् अस्ति तज्जन्यं च ज्ञानं न सर्वविषयकम् इति तज्जन्यं च ज्ञानं न सर्वविषयकम् इति षष्टितत्पुरुष अङ्गीकारे एतादृशी शब्द प्रयोगः कृत्वा व्यवहारं कृत्वा तत् शब्दप्रयोगेण यः ज्ञानं जनयति सः न सर्वविषयकम् इति सर्वविषयकम् इति तत् षष्टितत्पुरुष पुरुष अङ्गीकारे यथा तत् षष्टितत्पुरुषप्रयोगं कुर्मः तदा तु सर्वविषयकम् इति ज्ञानं जनयति परन्तु तत् न परन्तु तत्र अयं घटः तत् सः एव ज्ञानः ज्ञानं प्रति ज्ञानस्य कारणत्वम् अस्ति तत् कारणात् तत्
व्यवहारं प्रति ज्ञानस्य कारणत्वं परन्तु अत्र कीदृशदोषः
अव्याप्तिर् इति
कथम् अव्याप्तिदोषः उदेति
यथा तत्र षष्टितत्पुरुष स्वीकुर्मश्चेत् तत्र तु सर्वविषयकं ज्ञानं तु न उदेति परन्तु तत् विशिष्टज्ञानम् एव तत् अयं घटः सः एव ज्ञानम् उत्पद्यते तत् कारणात् तत् कर्मधार्य प्रयोगम् एव साधु अस्ति तत्र
परन्तु कथम् अतिव्याप्तिः भवति क्षम्यताम् अव्याप्तिदोषः कथं भवति अव्याप्तिदोषः
इत्युक्ते किं षष्टि तत्पुरुष प्रयोगं कुर्मः तत् तत् यत्किमपि ज्ञानं न इष्टं तदपि ज्ञानं तत् भासते तत् सः अपि तत्र तस्यापि तस्यापि जनकत्वं भवति तेन वक्तुं यथा षष्ठी तत्पुरुषङ्गीकारः कुर्मः तथा अव्याप्ति यत् न इष्टं तत् अपि तत् अन्तर्भूतः तत् अव्याप्तिः भवति
अव्याप्तिः इत्युक्ते समग्रं न अन्तर्भूतः खलु
आम् आम्
यदिष्टं न यद् अस्माकम् इष्टं न अन्तर्भूतः हा इत्युक्ते घटविषयकं ज्ञानमेव उदेति न तु सर्वविषयकं ज्ञानम् इति कृत्वा तत्र अव्याप्तिः दोषः भवति अतः
कर्मधार्यप्रयोगम् एव साधु अस्ति यथा वदामः अयं घटः अयं तु विशेषणः अस्ति घटः तु द्रव्यमस्ति तत् विषयकम् अस्ति विशेष अस्ति तत्र अयं घटः तस्य घटस्य प्रति एव घटस्य ज्ञानम् एव उत्पद्यते
अतः लक्षणवाक्यं किं भवति तस्य विग्रहम्
सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धिः तत्रापि कर्मधारयप्रयोगः अस्ति तत् सर्वव्यवहारहेतुर्गुणः ज्ञानं तत् न तु सर्वस्य व्यवहारः
इति अस्तु भारती भगिनी बुद्धं वा अत्र किञ्चित् वदति वा अव्याप्तिदोषः कथं निवार्यते लक्षणवाक्यं दृष्ट्वा वदतु भगिनि
ज्ञानं न सर्वविषयकम् इति
सर्वविषयकं ज्ञानम् इति अर्थः चेत् समासः किं भवति
न सर्वविषयकं
यदि सर्वविषयकम् इति अर्थः किमर्थं कर्मधारयस्य प्रयोगः अत्र कर्मधारयसमासः एव भवेत् सर्वव्यवहार सावित्री भगिनी किञ्चित् सहायं करोति वा अस्ति वा भगिनी न अखिल भगिनी अस्ति वा न अन्य
अस्ति भगिनि
किञ्चित् वदतु भगिनि अव्याप्तिदोषस्य निवारणं कथं भवति इति
हा अत्र तत् वाक्यमस्ति तज्जन्यं च ज्ञानं न सर्वविषयकम् इति षष्टितत्पुरुष अङ्गीकारे तादृशव्यवहारजनके घटज्ञाने अव्याप्तिः इति कर्मधारयः एव साधुः इति इत्युक्ते तत्र पूर्वम् अस्माभिः दृष्टं तत्र सर्वव्यवहारहेतुः गुणः ज्ञानं बुद्धिः इत्यत्र सर्वस्य इति स्वीकारे तत्र स्वीकारेण किं भवति इति इत्युक्ते सर्वस्य इति यदा वयं तत्र षष्टितत्पुरुषसमासः स्वीकृतः चेत् अस्माभिः स्वीकृतः चेत् तत्र सर्वस्य सर्वविषयकज्ञानम् एव उत्पादयति परन्तु यदा अयं घटः अथवा इदं पुस्तकम् इत्यादि वयं वदामः चेत् तत्र यद् ज्ञानम् अपेक्षितं तस्य जनकता तु न भवति इति कृत्वा अत्र षष्ठी तत्पुरुष अङ्गीकारः भवति चेत् तत्र सर्वस्य ज्ञानं भवति इति कृत्वा तत्र अयं घटः इति ज्ञानं तु न भवति तर्हि अव्याप्तिदोषः इत्युक्ते किम् अव्याप्तिदोषः इत्युक्ते लक्षणेषु तत्र एकदेशवृत्तित्वम् इति एव अव्याप्तिदोषः लक्ष्येषु क्षम्यतां लक्ष्येषु एकदेशवृत्तित्वम् इति एव अव्याप्तिदोषः इत्युक्ते अस्माकम् उदाहरणम् आसीत् तत्र गोत्वम् गोः इति गोः लक्षणं यदा वयं पश्यामः चेत् तत्र श्वेतवर्णीयः गोः इति वदामः चेत् तत्र कृष्णवर्णीयः अपि अस्ति अथवा अन्य तत्र श्वेतकृष्ण मिश्रितम् अपि अस्ति इति तत्सर्वं भवति तत्र तु अव्याप्ति भवति इति वयं दृष्टवन्तः तद्वत् अत्रापि अयं घटः इदं पुस्तकम् इत्यादिषु ज्ञानं तु न भवति केवलं सर्वविषयकज्ञानम् इति एव भवति इति कृत्वा तत्र अव्याप्तिदोषः आगच्छति परन्तु सर्वे ये व्यवहारः इति स्वीकुर्मः चेत् तत्र सर्वस्य इति न परन्तु सर्वे व्यवहारः इत्युक्ते अयं घटः वा भवतु इदं पुस्तकं वा भवतु अथवा अहं पुष्पं पश्यामि इति वा भवतु अथवा पर्वते धूमः अस्ति इति वा भवतु यत्किमपि भवतु तत्सर्वं अन्तर्भूतं भवति इति कृत्वा तत्र सर्वे ये व्यवहारः इति स्वीकुर्मः चेत् तत्र तादृशदोषः निराकृतः इति अत्र कथनस्य विषयः.
भगिनि समीचीनम् अशुद्धं वा भगिनि भारती भगिनि?
अव्याप्ति इति चेत् एक जातिः एव अस्ति इति सर्वाप्ति सर्वविषय इत्युक्ते बहवः
एकः जातिः इति लक्षणम् इति यत्किमपि स्वीकुर्मः तत् लक्षणं केषुचित् लक्ष्येषु एव वर्तते, सर्वेषु लक्ष्येषु न वर्तते यथा अखिला भगिन्या उक्तं. केषुचित् गोषु एव वर्तते कृष्णत्वं, कृष्णवर्णः, न तु सर्वेषु गोषु इति कृत्वा अन्यत् किमपि लक्षणं स्वीकुर्मः खलु. तथैव अत्रापि सर्वविषयकं सर्वस्य व्यवहारः इति वदनेन सर्वविषयकं ज्ञानं सूचितं भवति. परन्तु अस्माकं यत् इष्टम् अस्ति, अयं घटः वा इदं पुस्तकं वा इयं लेखनी इति, अतः विशिष्टज्ञानं न उदेति इति कृत्वा अव्याप्तिदोषः भवति.
ओ सर्वे सर्वे इति कृत्वा अव्याप्तिदोषः भवति.
यतोहि सर्वविषयकं ज्ञानं न उदेति एव. घटं घटस्य दर्शनेन सर्वविषयकं ज्ञानं भवति वा?
नो, न न भवति.
न घटविषयकं घटविशिष्टज्ञानम् एव भवति. अतः अतिव्याप्त्याः निवारणाय कर्मधारयसमासः भवेत्. सर्वे सर्वे ये व्यवहाराः इति कर्मधारयः.
धन्यवादः.
अस्तु, प्रश्न अस्ति वा?
नास्ति.
समापयामः वा? धन्यवादः.
धन्यवादः.
आं, शुभरात्रिः.